ಪ್ರತಿಗುಂಹವಾಮಹೆ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನಶೃಣ್ವನ್ನೋದ್ರಿಭಿಃ ಸೇದಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಜೇಭಿಃ ವಾಜಿನೀವತೀ ಧೀರಾಮವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀಗುರುಭ್ಯೋ ನಮಃ ಹರಿಃ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೇ ರುದ್ರಮನ್ಯವ ಉತೋದ ಇಷಭೇ ನಮಃ ನಮಸ್ತೇ ಅಸ್ತು ಧನ್ವನೇ ಬಾಹುಭ್ಯಾಮುದತೇ ನಮಃ ಯಾತಯಿಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೇ ಧನುಃ ಶಿವಾಶ ದವ್ಯಾಯಾದವತಯಾನೋ ರುದ್ರಮೃಡಯಾ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನೋರಘೋರಾ ಪಾಪಕಾಶಿನೀ ತಯಾನಸ್ತನು ಭಾಷಂತಮಯಾ ಗಿರಿಶಂತಾ ವಿಶಾಕಶೀ ಯಾಮಿ ಶುಂಗಿರಿಶಂತ ಹಸ್ತೇ ಬಿಭಷ್ಯಸ್ತವೇ ಶಿವಾಂಗಿರಿತ್ರತಾಂ ಕುರು ಮಾಹಿ ಗುಂಸಿಃ ಪುರುಷಂ ಜಗತ್ ಶಿವೇನ ವಜಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಛಾ ವದಾಮಸಿ ಯಥಾ ನಃ ಸರ್ವಮಿಜ್ಜಗತ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾಸತ್ ಅಧ್ಯವೋಚದಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ್ ಅಹೇಕಶ್ಚ ಸರ್ವಾಂ ಭಯಂ ಸರ್ವಾಶ್ಚ ಯಾತು ಧಾನ್ಯಃ ಅಸೌ ಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ವಪ್ರಸ್ಸು ಮಂಗಲಃ ಏಷೇಮಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷಶ್ರಿತಾ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಡ ಈಮಹೇ ಅಸಹ್ಯೋ ವಸಃಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉದೈನಂ ಗೋಪಾ ಅದೃಶನ್ನ ದೃಶನ್ನುದಹಾರ್ಯಃ ಉದೈನಂ ವಿಶ್ವಾ ಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಢುಷೇ ಅಥೋ ಯೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ದೇವ್ಯೋ ಕರಂ ನಮಃ ಪ್ರಮಂಜ ಧನ್ವನಸ್ವಮುಭಯೋರಾಗ್ನಿಯೋರ್ಜಾಂ ಯಾಶ್ಚ ದೇಹಸ್ತ ಇಷವ ಪರಾತಾ ಭಗವೋ ವಪ ಅವತತ್ಯ ಧನುಸ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷು ದೇ ನಿಷೇವ್ಯ ಶಲ್ಯಾನಾಮುಖಾ ಶಿವೋನ ಸುಮನಾಭವ ವಿಜ್ಯಂಧನ ಕಪರ್ತಿನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಉತ ಅನೇಶನ್ನಸ್ಯೇಷವ ಆಹುರಸ್ಯ ನಿಷಂಗತಿಃ ಯಾ ದೇಹೇತಿರ್ಮೀದುಷ್ಟಮಹಸ್ತೆ ಬಭೂವತೆ ಧನುಃ ಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ವಮ ಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜ ನಮಸ್ತೇ ಅಸ್ವಾಯುಧಾಯ ನಾರದಾಯ ದೃಷ್ಟವೇ ಉಭಾವ್ಯಾಮುದೇ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೇ ಧನ್ವನೋ ಏತಿರಸ್ಮಾನ್ ವೃಣಕ್ತು ವಿಶ್ವತಃ ಅಥೋ ಯ ಇಷುದೆಸ್ತವಾರೇ ಅಸ್ಮನ್ನಿದೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರ್ಯಂಬಕಾಯ ತ್ರಿಪುರಾಂಧಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ ನಮೋ ಹಿರಣ್ಯವಾಹವೇತೇ धान्ये दिशाञ्च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्ते जलाय त्वशिवते पतीनाम् पतये नमो नमो वप्लुषाय विव्याधिनेनानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्राया तथा विने क्षेत्राणाम् पतये नमो नमः सोताया हन्त्यायवनानाम् पतये नमो नमो रोहितायस्त पतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्त्रये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्गोजाय क्रन्दयते पत्नीनाम् पतये नमो नमः क्रस्तवीताय धावते सत्वराम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुपाय निषङ्गिणे स्थेलानाम् पतये नमो नमो निषङ्गिण इषु धिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्थायोनाम् पतये नमो नमो निचेलवे परिचरायारण्यानाम् पतये नमो नमः श्रिकाविभ्यो जिगागुम् सद्यो वस्त्रताम् पतये नमो नमो श्रीमद्भ्यो रक्तम् च रव्यप्रकृन्दानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्जानाम् पतये नमो नम इषु मध्यो धन्वाविभ्यश्च वो नमो नम आधन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छभ्यो विसृजभ्यश्च वो नमो नमोऽस्यभ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रभ्यश्च वो नमो नमः तिष्ठद्भ्यो दावभ्यश्च वो नमो नमः सवाभ्यः सवापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्यादिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुम्हदेभ्यश्च वो नमो नमो वृत्सेभ्यो गृत्सपदेभ्यश्च वो नमो नमो प्रादेभ्यो प्रातपदेभ्यश्च वो नमो नमो गणेभ्यो गणपतेभ्यश्च वो नमो नमो विलोकेभ्यो विश्वलोकेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रतेभ्यो रतेभ्यश्च वो नमो नमो रतेभ्यो रथपदेभ्यश्च वो नमो नम सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनेभ्यश्च वो नमो नमः स्वभ्यस्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिभिष्टाय च नमो मीडुष्टमाय चेशुपते च नमो प्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्र्याय च शेव्याय च नमः ऊर्म्याय च वस्वन्याय च नमः श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च अगल्भाय च नमो जगन्याय च बुद्धियाय च नमः सोऽव्याय च प्रतिसद्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय च वसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुलताय च नमः शूराय च ववृन्दते च नमो वल्मिने च वरोदिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दन्दुभ्याय च हरण्याय च नमो दृष्टवे च प्रमुषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेशुधिमते च नमः शेष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सोत्याय च सदस्याय च नमो नाद्याय च वैशन्दाय च नमः कोप्याय च वट्याय च नमो वक्ष्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः इन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्ते च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतलाय च नमः तीर्थ्याय च कोल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः षष्ट्याय च भेन्याय च नमः सिकत्याय च प्रवाक्याय च नमः हिरण्याय च प्रपत्याय च नमः केगुंशिराय च क्षयराय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेयाय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुं सव्याय च रजस्याय च नमः शुष्क्याय च हृत्याय च नमो लोप्याय चोलप्याय च नमः ओर्व्याय च सोर्व्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमाणाय च विघ्नते च नमः आखिलते च प्रखिलते च नमो वक्रिलेभ्यो देवानागम् हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्मत्केभ्यो नमः आनिर्हतेभ्यो नमः आमीमत्केभ्यः त्रापे अन्धसस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मारोमो येषाम् किञ्चनामवत् याते रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तयानो मृणजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वेराय प्रबलामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टङ्गामि अस्मिन्नलातुरम् मृळारो रुद्रो ननो वयस्कलक्षयद्वेराय नमता विदेमते यच्चम् जयोश्च मनुरायजे पिता ददश्यावतमरुद्र प्रणीतौ मानो महान्तभुतमानो अध्वगम् मान उक्षन्तभुतमान उक्षितम् मानो वदे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्रीरिषः मानस्तोके तनये मान आयुषि मानो गोषु मानो अश्वेषुलीरिषः वीरान्मानो रुद्रभावितो वदिर्हविष्मन्तो नमसा विदेवते आराते गोप्रभुत पोरुषग्ने क्षयद्वीराय सुन्नमस्मे ते अस्तु रक्षा जनो अलिजदेव ब्रो यदा जनस्य वयच्छद्विपरुहाः स्तुभि श्रुतम् गर्त सदम् युवानम् जगन्न भीममुपहत्वमुग्रम् प्रयाज निद्रे रुद्रत्तमानो मन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हे दुर्गणत्वपरित्वेषस्य दुर्मतिरघायोः अवस्तिना भगवद्धत्तनुष्वमीडुर्तोकाय तनयाय मृडया मीडुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधन्निताय कृत्यम् वसानमाचरपि नाकम् विव्रदागहे विकिरितविलोहित नमस्ते अस्तु भगवः याते सहस्रगुम् वेदयोन्यमस्मन्निव पन्तुताः सहस्राणि सहस्रदा बाहुवोत्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्रा अधिभोङ्गा तेषागुम् सहस्रयो जने वधन्वानि तन्मसि अस्मिन्महत्यर्णवेन्दरिक्षे भवादि नीलग्रीवाशिकण्ठा शर्वालः क्षमाचराः नीलग्रीवाशिकण्ठा दिवगुं रुद्रा उपश्रिताः ये वृक्षेषु सत्यञ्जला नीलग्रीवा विलोहिताः ये भूता रामधिपतयो विशिकास कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिपतो जनान् ये पताम् पतिलक्षय ऐलवृदायव्युदः ये तीर्थानि प्रचलन्ति शृकावन्तो निषङ्गिणः यथेतावन्तश्च भूयागुंसश्च दृशो रुद्रापितस्तिरे तेषागुंसः सयो जने वधन्वानि तन्मते नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे के दिव्येषावन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतिचेर्दशो दिचेर्दशोर्दास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् विश्वो यश्च नो द्वे स्थितम् भोजम् दधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमि भवन्द्रनान् मृत्योर्मुक्षे अमामृतात् यो रुद्रो अग्नयो अप्सु य ओषधेषु यो रुद्रो विश्वाभुवनादिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशामृत्यो मर्त्याय हन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मारिशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्यवे पाहि तमस्तु हि यत्स्वशस्व जन्मायो विश्वस्य क्षयदिवे सजस्य यक्ष्वामहेशो मनसाय रुद्रम् नमो भिर्देवमसुरन्दुमस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वभे स जोयगुम् शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसे मा वर्धन्तु वाङ्गिरः द्युम्नैवाजेभिरागतम् वाजश्च मे प्रलवश्च मे प्रयतिश्च मे प्रसृतिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे बाणश्च मे ध्यानश्च मे स्वश्च मे चित्तम् च महाधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे तानि च मे परोपुंसि च मे शरीराणि च मे जैश्चम् च म आधिपत्यम् च मे मन्योश्च मे भामश्च मे वश्च मे मश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वश्वा च मे द्रागुजा च मे ವೃದ್ಧಂ ಚ ಮೇ ವೃದ್ಧಶ್ಚ ಮೇ ಸತ್ಯಂ ಚ ಮೇ ಶ್ರದ್ಧಾ ಚ ಮೇ ಜಗಚ್ಚ ಮೇ ಧನಂ ಚ ಮೇ ವಶಶ್ಚ ಮೇ ದ್ವೇಷಶ್ಚ ಮೇ ಕ್ರೀಡಾ ಚ ಮೇ ಬೋಧಶ್ಚ ಮೇ ಜಾತಂ ಚ ಮೇ ಜನಿಷ್ಯಮಾನಂ ಚ ಮೇ ಸೂಕ್ತಂ ಚ ಮೇ ಸುಖತಂ ಚ ಮೇ ವಿತ್ತಂ ಚ ಮೇ ವೇದ್ಯಂ ಚ ಮೇ ಭೂತಂ ಚ ಮೇ ಭವಿಷ್ಯ ಮೇ ಸುಗಂ ಚ ಮೇ ಸುಪಥಂ ಚ ಮರುದ್ಧಂ ಚ ಮರುದ್ಧಿಶ್ಚ ಮೇ ಕ್ಲುಪ್ತಂ ಚ ಮೇ ಕ್ಲುಪ್ತಿಶ್ಚ ಮೇ ಮತಿಶ್ಚ ಮೇ ಸುಮತಿಶ್ಚ ಮೇ ಶಂಚ ಮೇ ಮಯಶ್ಚ ಮೇ ಪ್ರಿಯಂಚ ಮೇ ನು ಕಾಮಶ್ಚ ಮೇ ಕಾಮಶ್ಚ ಮೇ ಸೋಮನಸಶ್ಚ ಮೇ ಭದ್ರಂಚ ಮೇ ಶ್ರೇಯಶ್ಚ ಮೇ ವಶ್ಯಶ್ಚ ಮೇ ಯಶಶ್ಚ ಮೇ ಭಗಶ್ಚ ಮೇ ದ್ರವಿಣಂ ಚ ಮೇ ಯಂತಾ ಚ ಮೇ ಧತ್ತಾ ಚ ಮೇ ಕ್ಷೇಮಶ್ಚ ಮೇ ಧೃತಿಶ್ಚ ಮೇ ವಿಶ್ವಂ ಚ ಮೇ ಮಹಶ್ಚ ಮೇ ಸಂವಿತ್ ಚ ಮೇ ಜ್ಞಾತಂ ಚ ಮೇ ಸ್ವೋಶ್ಚ ಮೇ ಪ್ರಸೋಶ್ಚ ಮೇ ಸ್ಥಿರಂ ಚ ಮೇ ಲಯಶ್ಚ ಮರುತಂ ಚ ಮೇ ಮೃತಂ ಚ ಮೇ ಯಕ್ಷ್ಮಂ ಚ ಮೇ ನಾಮಯಶ್ಚ ಮೇ ಜೀವಾದುಶ್ಚ ಮೇ ದೀರ್ಘಾಯುತ್ವಂ ಚ ಮೇ ನ ಮಿತ್ರಂ ಚ ಮೇ ಭಯಂ ಚ ಮೇ ಸುಗಂ ಚ ಮೇ ಶಯನಂ ಚ ಮೇ ಸೋಷಾ ಚ ಮೇ ಸುಧಿನಂ ಚ ಮೇ ಊರ್ಚ ಮೇ ಸೋನೃತಾ ಚ ಮೇ ಪಯಶ್ಚ ಮೇ ರಸಶ್ಚ ಮೇ ಘೃತಂ ಚ ಮೇ ಮಧು ಚ ಮೇ ಸದ್ಯಶ್ಚ ಮೇ ಸಪೀತಿಶ್ಚ ಮೇ ಕೃಷಿಶ್ಚ ಮೇ ವೃಷ್ಟಿಶ್ಚ ಮೇ ಜೈತ್ರಂ ಚ ಮ ಔದ್ಭಿದ್ಯಂ ಚ ಮೇ ರಯಶ್ಚ ಮೇ ರಾಯಶ್ಚ ಮೇ ಪುಷ್ಟಂ ಚ ಮೇ ಪುಷ್ಟಿಶ್ಚ ಮೇ ವಿಭುಜ ಮೇ ಪ್ರಭುಜ ಮೇ ಬಹುಜ ಮೇ ಭೂಯಶ್ಚ ಮೇ ಪೂರ್ಣಂ ಚ ಮೇ ಪೂರ್ಣತರಂ ಚ ಮೇ ಕ್ಷಿತಿಶ್ಚ ಮೇ ಕೋಯವಾಶ್ಚ ಮೇ ನಂ ಚ ಮೇ ಶುಚ್ಚ ಮೇ ವಿಹಯಶ್ಚ ಮೇ ಯವಾಶ್ಚ ಮೇ ಮಾಶಾಶ್ಚ ಮೇ ತಿಲಾಶ್ಚ ಮೇ ಮುದ್ಘಾಶ್ಚ ಮೇ ಖಲ್ವಾಶ್ಚ ಮೇ ಗೋಧೂಮಾಶ್ಚ ಮೇ ಮಸುರಾಶ್ಚ ಮೇ ಪ್ರಿಯಂಗವಶ್ಚ ಮೇ ನವಶ್ಚ ಮೇ ಶ್ಯಾಮಕಾಶ್ಚ ಮೇ ನಿವಾರಾಶ್ಚ ಮೇ ಅಶ್ಮಾಶ್ಚ ಮೇ ಮೃತ್ತಿಕಾಶ್ಚ ಮೇ ಗಿರಯಶ್ಚ ಮೇ ಪರ್ವತಾಶ್ಚ ಮೇ ಶಿಖರಾಶ್ಚ ಮೇ ವನಸ್ಪತಯಶ್ಚ ಮೇ ಹಿರಣ್ಯಂಚ ಮೇ ಯಶ್ಚ ಮೇ ಶೇಷಂ ಚ ಮೇ ತ್ರಪುಶ್ಚ ಮೇ ಶ್ಯಾಮಂ ಚ ಮೇ ಲೋಹಂ ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮ ಆಪಶ್ಚ ಮೇ ವಿರುಧಶ್ಚ ಮ ಔಷಧಯಶ್ಚ ಮೇ ಕೃಷ್ಟಪಚ್ಯಂ ಚ ಮೇ ಕೃಷ್ಟಪಚ್ಯಂ ಚ ಮೇ ಗ್ರಾಮ್ಯಾಶ್ಚ ಮೇ ಪಶವ ಆರಣ್ಯಾಶ್ಚ ಯಜ್ಞೇನ ಕಲ್ಪಂತ ವಿತ್ತಂ ಚ ಮೇ ವಿತ್ತಿಶ್ಚ ಮೇ ಭೂತಂ ಚ ಮೇ ಭೂತಿಶ್ಚ ಮೇ ವಸು ಚ ಮೇ ವಸತಿಶ್ಚ ಮೇ ಕರ್ಮ ಚ ಮೇ ಶಕ್ತಿಶ್ಚ ಮೇ ಅರ್ಥಶ್ಚ ಮಹೇಮಶ್ಚ ಮಹಿತಿಶ್ಚ ಮೇ ಗತಿಶ್ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸೋಮಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸವಿತಾ ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಸರಸ್ವತೀ ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಪೂಷಾ ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಬೃಹಸ್ಪತಿಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಮಿತ್ರಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ವರುಣಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ತ್ವಷ್ಟಾ ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಧಾತಾ ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ವಿಷ್ಣುಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಶ್ವಿನೋ ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ಮರುತಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ವಿಶ್ವೇ ಚ ಮೇ ದೇವಾ ಇಂದ್ರಶ್ಚ ಮೇ ಪೃಥಿವೀ ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ತರಿಕ್ಷಂ ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ದ್ಯೌಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ ದಿಶಶ್ಚ ಮಹೇಂದ್ರಶ್ಚ ಮೇ मूर्धा च महिन्द्रश्च मे प्रजापतिश्च महिन्द्रश्च मे अगुंसश्च मे रश्मिश्च मेदाभ्यश्च मेधिपतिश्च म उपागुंसश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्त्रे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतग्रहाश्च मेति ग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतेजाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे औष्णश्च मे पात्नीवतश्च मे हार्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे धृष्णीयाश्च मे शुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे धिषभणे च मे द्रोणकलशश्च मे वायव्यानि च मे पोतभृच्च म आधवनीयश्च म आग्नेयम् च मे अभिधानम् च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पजदाश्च मे बभृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे स्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्योश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृक्ष मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयो वृष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेता गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे द्वित्यवाच्च मे द्वित्यौरे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहे च मे पश्चवाच्च मे पश्चौहे च म उक्षा च मे वशा च मऋषभश्च मे वेहच्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता श्रोत्रै यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एकाश मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मे शौच मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मे स्थाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारि चत्वारिगुं षच्च मे सा चत्वारिगुं षच्च मे वाजश्च प्रसवश्च बीजश्च क्रतुश्च शुभश्च मूर्धा च व्यश्नीयश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्ता मदानि सगुंसि षद्विश्वे देवासोक्तवा च पृथिविमातर्मा माहिगुंसिर्मधुमनिष्ये मधुजनिष्ये मधुभक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाजमुद्यालगुम् शुश्रूषेण्या मनुष्येभ्यस्तम् वा देव अवन्तु शोभाय पितरो न मदन्तु ॐ शान्ति शान्ति शान्तिः संयोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद् स्वभूमिम् विश्वतो भृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उदामृतत्वस्येषा नः यदन्येनातिरोहति एतावानस्य महिमा अतोर्जायागस्य पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादोर्ध्व उदये पुरुषः पादोऽस्येहा भवात्पुनः ततो विश्वम् विक्रामत् साशनानशने अभि तस्माद्विराडजायत विराजोऽधिपुरुषः सजातो अत्यरिच्यता पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वत वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्मः शरद्धविः सप्तास्यासन् परिधयः त्रिसप्त समिद कृताः देवाय यज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवाय जन्त साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः संभृतम् वृषदाज्यम् पशोगस्तागश्चक्रे वायव्यान् आरण्याम् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः वृचः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके चो भया दतः गावो हजग्निरे तस्मात् तस्मात् जाता अजावयः यत्पुरुषं यददुः कथिताव्यकल्पयन् मुखं किमस्य कौ बाहु कावूरुपादा उच्छेदे ब्राह्मणोऽस्य मुखमासीत् बाहुराजं यकृतः ऊरु तदस्य यद्वैश्यः पद्भ्यागुं शूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्याकाशेदन्तरिक्षम् शीर्षोऽध्यो समवर्तत पद्भ्याम् भूमिर्दिशश्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन् यदास्ते धाता पुरस्ताद्य मुदा जहार शक्रप्रविद्वान् प्रदिशश्चतस्रः तमेवम् विद्वानमृत इह भवति नान्यपन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् देहनाकम् महिमानः सजन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्यः सम्भूत पृथिव्यैरसा च विश्वकर्मणः समवर्तदाधि तस्य त्वष्टा विददद्रूपमेते तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यपन्ता विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा अशन्वशे ह्रीश्च ते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यान्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् षण्णो अस्तु द्विपदे ಶಂ ಚತುಷ್ಪದೇ.
ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿ. ಓಂ ಅತ್ರಿಧಾತ್ವಾ ಕ್ರಿಮೇಹನ್ಮೇ ಕಣ್ವೇನ ಜಮದಗ್ನಿನಾ ವಿಶ್ವಾವಸೋರ್ಬ್ರಹ್ಮಣಾಹತಃ ಕ್ರಿಮೀನಾಗುಂ ರಾಜಾ ಅಪ್ಯೇಷಾಗಸ್ಥಪತಿರ್ಹತಃ ಅಥೋ ಮಾತಾಥೋ ಪಿತಾ ಅಥೋ ಸ್ಥೂರಾಃ ಅಥೋ ಕ್ಷುದ್ರಾಃ ಅಧೋ ಕೃಷ್ಣ ಅಧೋ ಶ್ವೇತಃ ಅಧೋ ಆಶಾತಿಕಾಹತಃ ಶ್ವೇತಾಭಿಃ ಸಹ ಸರ್ವೇ ಹತಃ ಆಖರಪದ್ಯ ಶ್ರುತಸ್ಯ ಹವಿಷೋ ಯಥಾ ತತ್ ಸತ್ಯಂ ಯದಮೈಯಮಸ್ಯ ಜಂಭಯೋಃ ಆದಧಾಮಿ ತಥಾ ಹಿ ತತ್ ಖಂಡನ್ನಸಿ. ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿ. ಸಂಸಮಿತ್ಯುವಸೇ ವೃಷನ್ನಗ್ನೇ ವಿಶ್ವಾನ್ಯರ್ಯ ಆ ಇಳಸ್ಪತೆ ಸಮಿತ್ಯಸೇ ಸ ನೋ ವಸೂನ್ಯಾಭರ ಸಂಗಚ್ಚ ಧ್ವಂ ಸಂವದ ಧ್ವಂ ಸಂಭೋವನಾಂಸಿ ಜಾನತಾ ದೇವಾ ಭಾಗಯ್ಯತಾ ಪೂರ್ವೇ ಸಂಜಾನಾನಾಮುಪಾಸತೆ ಸಮಾನೋ ಮಂದ್ರ ಸಮಿತಿ ಸಮಾನಿ ಸಮಾನಂ ಮನಃ ಸಹ ಚಿತ್ತಮೇಷ ಸಮಾನಂ ಮಂತ್ರಮಭಿಮಂತ್ರಯೇವ ಸಮಾನೇನ ವೋ ಖವಿಷಾ ಜುಹೋಮಿ ಸಮಾನೀವ ಆಕೋತಿ ಸಮಾನಾ ಹೃದಯಾನಿವಃ ಸಮಾನಮಸ್ತು ವೋ ಮನೋ ಯಥಾ ವಸ್ವ ಸುಹಾಸತಿ. ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿ. ಓಂ ಪ್ರಾತರಗ್ನಿಂ ಪ್ರಾತರಿಂದ್ರಗುಂ ಹವಾಮಹೇ ಪ್ರಾತರ್ಮಿತ್ರಾವರುಣಾ ಪ್ರಾತರಶ್ವಿನಾ ಪ್ರಾತರ್ವಗಂ ಪೋಷಣಂ ಬ್ರಹ್ಮಣಸ್ಪತಿಂ ಪ್ರಾತಃ ಸೋಮಮುತ ರುದ್ರಗುಂ ಹುವೇಮ ಪ್ರಾತರ್ಜಿತಂ ಭಗಮುಗ್ರಗುಂ ಹುವೇಮ ವಯಂ ಪುತ್ರಮದಿತೇರ್ಯೋ ವಿಧತ್ತ ಆದ್ರಶ್ಚಿದ್ಯಂ ಮನ್ಯಮಾನಸ್ತುರಶ್ಚಿದ್ರಾಜಾಚಿದ್ಯಂ ಭಗಂ ಭಕ್ಷೇತ್ಯಾಹ ಭಗ ಪ್ರಣೇತರ್ಭಗ ಸತ್ಯ ರಾಧೋ ಭಗೇ ಮಾಂ ದಿಯಮುದ ಪದದನ್ನಃ ಭಗ ಪ್ರಣೋಜನಯ ಗೋಭಿರಶ್ವೈರ್ಭಗ ಪ್ರಣವಿರ್ನಿಬಂಧ ಸ್ಯಾಮ ಉತೇದಾನೀಂ ಭಗವಂತಃ ಸ್ಯಾಮೋತ ಪ್ರಪಿತ್ವ ಉತ ಮಧ್ಯೇ ಅಹ್ನಾ ಉತೋದಿತಾ ಮಗವನ್ ಸೂರ್ಯಸ್ಯ ವಯಂ ದೇವಾನಾಗುಂ ಸುಮತೋ ಸ್ಯಾಮ ಭಗಗೇವ ಭಗವಾಗುಂ ಅಸ್ತು ದೇವಾಸ್ತೇನ ವಯಂ ಭಗವಂತಃ ಸ್ಯಾಮ ತಂ ತ್ವಾ ಭಗಸ್ಸರ್ವಯಿಜ್ಯೋಹವೇಮಿ ಸನೋ ಭಗಪುರಯೇತಾ ಭವೇಹ ಸಮದ್ವರಾಯೋಷಸೋ ನಮಂತದಧಿಕ್ರಾವೇವ ಶುಚಯೇ ಪದಾಯ అర్వాచీనం వసుభిదం భగన్నోరదమివాచిన ఆపహంతో అశ్వావతిర్గోమతిర్న ఉషాసో వీరవతే సదముచ్చందు భద్రాః ఘృతం దుహానా విశ్వత ప్రపీడాయోయం పాద స్వస్తిభిః సదా నః యో మాగ్నే భాగినగుం సంతమతా భాగం చికీర్షతే అభాగమగ్నేతం కురు మామగ్నే భాగినం కురు. ఓం శాంతి శాంతి శాంతిః. ఓం సత్యేన రజసా వర్తమానో నివేశయన్నమృతం మర్త్యం చ హిరణ్యయేన సవితారథేన దేవో యాతి భువనా విపశ్యన్ అగ్నిం దూతం వృణీమహే హోతారం విశ్వవేదసం అస్య యజ్ఞస్య సుక్రతుం ఏషామీశే పశుపతి పశూనా చతుష్పదముత ద్విపదా నిష్క్రీతోయం యజ్ఞియం భాగమేతురాయ స్పోషాయజమానస్య సంతు. ఓం అధిదేవతా ప్రత్యధిదేవతాత్ సహితాయ ఆదిత్యాయ నమః. ఓం ఆప్యాయ స్వసమేతు తే విశ్వతః సోమవృష్ణియం భవావాజస్య సంగతే అప్సు మే సోమో అబ్రవీదంతర్విశ్వాణి భేషజ అగ్నిం చ విశ్వశంభువమాపస్య విశ్వభేషజే గౌరీమియ సలిలాని తక్షద్యేకపదే ద్విపదే సా చతుష్పదే అష్టాపదే నవపదే బభూవుషే సహస్రాక్షరా పరమే వ్యోమన్న. ఓం అధిదేవతా ప్రత్యధిదేవతాత్ సహితాయ సోమాయ నమః. అగ్నిర్మూర్ధా దివక్కకుత్పతి పృథివ్యా అయం అపాగుం రేతాగుంసి జిన్వతి స్యోనా పృథివిభవానుక్షరా నివేశని యచ్చాన శర్మ సప్రధాః క్షేత్రస్య పతినా వయగుం హితేనే భజయామసి గామశ్వం పోషయిత్న వాసనో మృడాదీదృశే. ఓం అధిదేవతా ప్రత్యధిదేవతాత్ సహితాయ అంగారకాయ నమః. ఓం ఉద్బుద్ధ్య స్వాగ్నే ప్రతిజాగృహ్యేన మిష్టా పూర్తే సగుం సృజేథ భయం చ పునః కృణ్వగ్స్త్వా పితరం యువానమన్వాతాగుంసే త్వయితంతు మేతం ఇదం విష్ణుర్విచక్రమే త్రేధానితరే పదం సమూఢమస్య పాగుం సురే విష్ణోరరాటమసి విష్ణో పృష్టమసి విష్ణో స్నప్త్రే స్థో విష్ణో శూరసి విష్ణో ధ్రువమసి వైష్ణవమసి విష్ణవే త్వా. ఓం అధిదేవతా ప్రత్యధిదేవతాత్ సహితాయ బుధాయ నమః. ఓం బృహస్పతే అతియదర్యో గర్హాద్యుమద్విభాతి క్రతుమజ్జనేషు యద్దీత యచ్చ వసత్త ప్రజాదత తస్మాసుద్రవిడం దేహి చిత్రం ఇంద్రమరుత్వ ఇహ పాహి సోమం యథాశాద్యాతే అపి భస్సుతస్య తవ ప్రణీతే తవ శూరశర్మన్నా వివాసంతి కవయస్సు యజ్ఞాః బ్రహ్మజ్ఞానం ప్రథమం పురస్తాద్విసే మతః సురుచోపేన ఆవహ సముద్రియా ఉపమా అస్య విష్టా సతశ్చ యోనిమసతశ్చ వివహ ఓం అధిదేవత ప్రత్యధిదేవత సహితాయ బృహస్పతయే నమః ఓం ప్రవశుక్రాయ భానవే భరద్వగుం హవ్యం మతిం చాగ్నయే సుపూతం యో దేవ్యాణి మానుషా జనోగుష్యంతర్విశ్వాణి విద్మనాశిగాతే ఇంద్రాణి మాసు నారిషు సుపత్ని మహమశ్రవం నహ్యస్య అపరంచన జరసామరతే పతిః ఇంద్రం వో విశ్వతః పరిహవామహే జనేభ్యః అస్మాకమస్తు కేవలః ఓం అధిదేవత ప్రత్యధిదేవత సహితాయ శుక్రాయ నమః ఓం చన్నో దేవే రభిష్టయ ఆపో భవంతు పీతయే చయ్యోరభిస్రవంతు నః ప్రజాపతేన త్వదేతాన్యన్యో విశ్వా జాతాని పరితా బభూవ యత్కామాతే జుహుమస్తన్నో అస్తు వయగ్గస్యామపతయోరయేణ ఇమం యమప్రస్తరమాహి సీతాంగిరోపి పితృభిః సంవిధానః ఆత్వా మంత్రా కవిశస్తావహన్ త్వేనారాజన్ హవిషామాజయస్వ ఓం అధిదేవత ప్రత్యధిదేవత సహితాయ శనైశ్చరాయ నమః ఓం కయానశ్చిత్ ఆభువదూతే సదా వృధస్సథ కయా శచిష్టయా భృతా ఆయంగౌ పృష్ణిరక్రమీదసనన్మాతరం పునః పితరం చ ప్రయన్ శుభః యత్తే దేవే నిరరుతిరా బబందదామగ్రేవాస్వవిచత్యం ఇదం తే తద్విష్యామ్యాయుషో నమద్యా తదా జీవ పితుమద్భిప్రముక్తః ఓం అధిదేవత ప్రత్యధిదేవత సహితాయ రాహవే నమః ఓం కేతుం కృణ్వన్న కేతవేపేషో మర్యా అపేషసే సముషద్భిరజా యథాః బ్రహ్మా దేవానాం పదవే కవీనాం ఋషిర్విప్రాణాం మహిషో మృగాణాం శేనో గృద్రానాగస్వదే నర్వనానాగం సోమ పవిత్రమత్యేతి రేభన్న సచిత్ర చిత్రం చితయంతమస్మై చిత్ర క్షత్ర చిత్రతమం వయోధా చంద్రం రయిం పురువీరం బృహంతం చంద్ర చంద్రాభిర్గృణతే యువస్వ ఓం అధిదేవత ప్రత్యధిదేవత సహితేభ్యః కేతుభ్యో నమః ఓం ఆదిత్య ఆదిత్యాది నవగ్రహ దేవతాభ్యో నమో నమః. స్వస్తి ప్రజాభ్యః పరిపాలయంతాం న్యాయేన మార్గేణ మహీం మహీషాః. గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం సమస్త లోకాః సుఖినో భవంతు. సమస్త లోకాః సుఖినో భవంతు. సమస్త లోకాః సుఖినో భవంతు. ఓం శాంతి శాంతి శాంతి.